इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः जतिन शर्मा। आदौ मुख्य वार्ताः। प्रख्यात गायिका आशा भोसले मुम्बय्यां द्विनवतितमे वयसि दिवंगता। प्रधानमन्त्री नरेन्द्र मोदी अवदत् यत् महिला रक्षणाधिनियमस्य कार्यान्वयनस्य समयः समागतः, सः सर्वान् सदस्यान् ऐक्येन अस्याधिनियमस्य संशोधनानि पारयितुं समाहूतवान्। पश्चिमबंगाल तमिलनाडु राज्ययोः विधानसभा निर्वाचनाय प्रचाराभियानं सजवं प्रवर्तते। प्रधानमन्त्री नरेन्द्र मोदी अद्य पश्चिमबंगालस्य सिलीगुड़ी नगरे एकां जनसभां सम्बोधितवान्। अमरनाथस्य वार्षिक तीर्थयात्रा जुलाई मासस्य तृतीय दिनांकात् समारप्स्यते। तीर्थयात्रा निमित्तं पंजीकरण प्रक्रिया 15 दिनांकतः समारप्स्यते। पश्चिम एशिया शांति संधौ सहमत्या विनैव अमेरिका ईरान प्रतिनिधिमण्डले अद्य इस्लामाबाद नगरतः प्रस्थितवन्तौ। अपि च आईपीएल क्रिकेट स्पर्धा मालिकायाः अद्य द्वितीयां स्पर्धायां वानखेड़े क्रीडांगणे मुम्बई इण्डियंस दलं रॉयल चैलेंजर्स बेंगलुरु दलं सम्मुखीकरिष्यति। अथ वार्ताः विशदीकृत्य। प्रख्यात गायिका पद्मविभूषण पुरस्कारेण च सम्मानिता आशा भोसले इत्येषा अद्य मुम्बई नगरे द्विनवतितमे वयसि दिवंगता। महाराष्ट्रस्य संस्कृतिमन्त्री आशीष शेलारः चिकित्सालयस्य बहिः वार्ताहरैः सह वार्तां कुर्वन् एतत् विज्ञापितवान्। गतसायं तस्याः हृदि वेदनायां सत्यां सा चिकित्सायै नीता। श्वः सायंकाले चतुर्वादने मुम्बई नगरस्य शिवाजी पार्क इत्याख्ये स्थले तस्याः अन्त्येष्टिः भविष्यति। प्रधानमन्त्री नरेन्द्र मोदी प्रख्यात गायिकायाः आशा भोसले इत्यस्याः निधने गभीरं दुःखं प्रकटितवान्। सामाजिक संजालीय माध्यमे स्वसंदेशे श्रीमोदी अवदत् यत् आशा भोसले भारतस्य सुप्रसिद्धास् बहुमुखी प्रतिभायुक्तास् वाणीष् अन्यतमा आसीत्। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अवसरेऽस्मिन् शोकं प्रकटितवती। राष्ट्रपतिना प्रोक्तं यत् तस्याः निधनेन संगीत जगति अपूरणीया क्षतिः समभवत्। आगच्छन्तु श्रोतारः तस्याः स्मृतौ वयं कर्णरसायनात्मकम् एकं स्वरं शृण्मः। प्रधानमन्त्री नरेन्द्र मोदी अवदत् यत् इदानीं महिला रक्षण विधेयकस्य वास्तविक रूपेण कार्यान्वयनस्य समयः आगतो विद्यते। सः आशां प्रकटितवान् यत् 31-2000 लोकसभा निर्वाचनं राज्यविधानसभा निर्वाचनानि च महिलाभ्यः निर्धारितारक्षणं समेत्य भविष्यन्ति। संसद्भवनस्य त्रिदिवसीय विशेषाधिवेशनात् प्राक् लोकसभायाः राज्यसभायाश्च सदननेतृभ्यः प्रेषिते पत्रे श्रीमोदी सर्वान् सदस्यान् एकस्वरेण अस्य विधेयकस्य संशोधनानि पारयितुं साहाय्यं याचितवान्। अस्य अधिनियमस्य प्रवर्तनेन लोकसभासनानां संख्या 16-800 भविष्यति, यत्र 73-200 महिलाभ्यः आरक्षितानि भविष्यन्ति। अनेनैव सह भारतीय जनता पार्टीति दलेन स्वसांसदेभ्यः व्हीप इति आधिकारिक आदेशः निस्सारितः, येन आगामि 16-दिनांकतः 18-दिनांकं यावत् सर्वेषाम् उपस्थितिः अनिवार्या भविष्यति। अस्मिन्नवसरे कस्यापि सदस्यस्य कृते अवकाशः नैव प्रदास्यते। संसद्भवनस्य एतद्विशेषाधिवेशनं गुरुवासरात् प्रारभ्यते, यस्य मुख्यकेन्द्रं महिलारक्षणसंशोधनविधेयकं वर्तते। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि समुपलब्धो भविष्यति। पश्चिमबंगाल तमिलनाडु राज्ययोः निर्वाचन प्रचारः तीव्रतया प्रवर्तते, यतः अस्य मासस्य 23 दिनांके भविष्यति मतदानम्, यस्य कृते केवलम् 11 दिनानि अवशिष्टानि सन्ति। पश्चिमबंगाले सर्वाणि प्रमुखानि राजनैतिकदलानि स्वस्य शीर्षनेतृभिः सह सर्वेषु जनपदेषु जनसभां सम्बोधयन्ति। भारतीय जनता दलस्य वरिष्ठनेता तथा प्रधानमन्त्री नरेन्द्र मोदी सिलिगुड़ी नगरस्य कावाखालीस्थाने एकां जनसभां सम्बोधितवान्। प्रधानमन्त्रिणा उक्तं यत् पश्चिमबंगालस्य जनानां मध्ये उत्साहः अस्य संकेतः अस्ति यत् आगामिषु निर्वाचनेषु सत्तारूढं तृणमूल कांग्रेस दलं पराजयं प्राप्स्यति।
टीएमसी ने नॉर्थ बंगाल के इंफ्रास्ट्रक्चर को जानबूझकर पीछे रखा। आपको कनेक्टिविटी हो, इंडस्ट्री हो, टूरिज्म हो, हर सेक्टर में उपेक्षा ही मिली। केंद्र सरकार ने जो पैसा भेजा वो भी ये सिंडिकेट वाले हड़प कर गए।
प्रधानमन्त्री नरेन्द्र मोदी आरोपितवान् यत् तृणमूल कांग्रेस प्रशासनेन स्वकार्यकाले राज्यस्य विकासम् अत्यन्तं प्रभावितम्। श्रीमोदी इदमपि अवदत् यत् निधिविनियोगे असन्तुलनम् आसीत्। तेन प्रोक्तं यत् मदरसा इत्यस्य कृते पर्याप्त संसाधनानि प्रदत्तानि, परञ्च उत्तरवंगप्रदेशस्य विकासावश्यकताः सम्यक् नैव पूरिताः। प्रधानमन्त्री अग्रे आरोपितवान् यत् राज्यप्रशासनं महिलानां पर्याप्त सुरक्षां सुनिश्चेतुम् असमर्थमासीत्। तेन जनसामान्याय आह्वानं कृतं यत् राज्ये विकासाय, उत्तमशासनाय च भारतीय जनता पार्टीति दलस्य समर्थनं कुर्वन्तु इति। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथ बांकुरा जनपदस्य सोनमुखी क्षेत्रे तथा च पूर्व मेदिनीपुर जनपदस्य नन्दकुमार कान्थी दक्षिणक्षेत्रयोः सभां सम्बोधयितुं गमिष्यति। अस्मिन्नेव क्रमे तृणमूल कांग्रेस दलस्य नेत्री ममता बनर्जी पूर्ववर्धमान जनपदस्य खण्डघोषक्षेत्रे आयोजितायां निर्वाचनसभायां सम्बोधितवती तथा भारतीय जनता पार्टीति दलस्य आलोचनां कृतवती। सा प्रोक्तवती यत् तस्याः दलं स्ववचनानि पूरयति, किन्तु भाजपा नेतारः केवलं वचनानि प्रयच्छन्ति, तानि नैव पूरयन्ति। ऐषमे वर्षे वार्षिक अमरनाथ यात्रा जुलाई मासस्य तृतीय दिनांकादारभ्य अष्टाविंशति दिनांकं यावत् रक्षाबन्धनावसरे समाप्तिमेष्यति। जम्मूकश्मीरस्य उपराज्यपालः मनोज सिंहः अद्य उद्घोषितवान् यत् इयं यात्रा तावत् सप्तपञ्चाशत् दिनानि यावत् प्रचलिष्यति। उपराज्यपालेन सामाजिक संजालीय माध्यमे संसूचितं यत् भगवतः शिवस्य आशीर्प्राप्तये प्रथमं पूजनं ज्येष्ठ पूर्णिमायाम् इत्युक्ते जून मासस्य एकोनत्रिंशत् दिनांके समायोजयिष्यते। सः अवदत् यत् तीर्थयात्रायै पूर्वपञ्जीकरणम् एप्रिल मासस्य पञ्चदश दिनांकतः अन्तर्जालीय माध्यमेन सहैव प्रत्यक्षरूपेण चारभ्यते। देशव्यापि स्तरे जम्मूकश्मीर बैंक, पंजाब नेशनल बैंक, भारतीय स्टेट बैंक एवमेव यस बैंक इत्यादीनां चतुष्पञ्चाशदधिक पञ्चशत शाखासु पञ्जीकरणस्य व्यवस्था भविष्यति। अमेरिकायाः उपराष्ट्रपतेः जेडी वेन्स इत्यस्य नेतृत्वयुतं प्रतिनिधिमण्डलं तथा च ईरान देशस्य प्रतिनिधिमण्डलं इस्लामाबाद नगरतः प्रस्थितवन्तौ। उभयोः पक्षयोः मध्ये कस्मिन्नपि सन्धौ सहमतिः न सञ्जाता। अमेरिकायाः उपराष्ट्रपतिना शान्तिवार्तायाः विफलतायाः कारणत्वेन ईरान देशस्य नकारात्मक दृष्टिकोणः प्रतिपादितः। तेन प्रतिपादितं यत् ईरान देशः आण्विक शस्त्राणां निर्माण सम्बद्धान् प्रस्तावान् निराकृतवान्। अपरतः ईरान देशस्य सर्वकारीय प्रसारमाध्यमैः अपि वार्तायाः वैफल्यं स्पष्टीकृतम्। ईरान देशस्य विदेशमन्त्रालयेन प्रोक्तं यत् मुख्येषु द्वित्रिविषयेषु मतभेदकारणात् इयं स्थितिः समुत्पन्ना। अवधेयास्पदमिदं यत् ईरान देशस्य अयं संघर्षः फरवरी मासस्य अन्ते प्रारब्धः आसीत्। उभयोः पक्षयोः मध्ये एकविंशतिहोरां यावत् सुदीर्घा चर्चा समजायत। वार्तासौकर्याय अष्टमे दिनांके सप्ताहद्वयात्मकः युद्धविरामः अपि कृतः, परन्तु इदानीं परिणामं विनैव इयं वार्ता समाप्ता। विदेशमन्त्री एस जयशंकरः यूएई देशस्य द्विदिवसीयायां यात्रायामस्ति। डॉ जयशंकरः पश्चिमेशिया देशे वर्तमान समय भारतीय नागरिकाणां कल्याणमालक्ष्य अबुधाबी नगरे उच्चस्तरीय वार्तां कृतवान्। आईपीएल क्रिकेट स्पर्धा मालिकायाम् अद्य लखनऊ सुपर जायंट्स गुजरात टाइटन्स दलयोः मध्ये स्पर्धा मध्याह्ने क्रीडिता। अस्यां स्पर्धायां प्रथमं क्रीडयता लखनऊ सुपर जायंट्स दलेन गुजरात टाइटन्स दलाय पञ्चषष्ट्यधिकैकशत धावनांकानां लक्ष्यं समुपस्थापितम्। अपरतः एका अन्या स्पर्धा सायं सप्तवादने भविष्यति, यत्र वानखेड़े क्रीडांगणे मुंबई इंडियंस दलं रॉयल चैलेंजर्स बेंगलुरु दलं सम्मुखीकरिष्यति इति वार्ताः।